अथ शाखम् अश्वत्थम् प्राहुर्व्ययम् छन्दांसि यस्य पर्णानि यस्तम् वेद अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणः प्रवृद्धा विषया प्रवाला अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धिनी मनुष्यलोके